दशरथ उवाच कोणोऽन्तको रौद्रयमो बभ्रुः कृष्णः सनिः पिङ्गलमन्दसौरीः नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरवि नन्दनाय शुराशुराः किं पुरुषो रगेन्द्र गन्धर्वभिद्यादर पन्नगाश पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरवि नन्दनाय नरा नरेन्द्रा पशवो मृगेन्द्रा वन्याश्च ये कीटपतङ्गभृङ्गाः पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशः पुरपत्तनानि पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय तिलैर्यवैर्माशकुटान्नदानैर्लोहेन नीलाम्बरदानतो वा प्रीणाति मन्त्रैः निजवासरेः च तस्मै नमः श्रीरविनन्दनाय प्रयागकूले यमुनातटे च सरस्वती पुण्यजले गुहायां यो योगीनां ध्यानक्तोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय अन्यप्रदेशात् स्वगृहं प्रविष्टः तदीयवारे शनरः सुखी स्यात् गृहात् गतो यो नः पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय स्रष्टा स्वयंभूः भुवनत्रयस्य त्राता हरीशो हरते पिनाकी एकश्रुता रुक्ययजुः साममूर्तिः तस्मै नमः श्री रविनन्दनाय संयष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च पटेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रो अन्तको यमः शौरिः सनिश्चरो मन्दः पिप्लादेन संस्तुतः एतानि दशनामानि प्रातरुत्थाय यः पठेत् शनैः शरत्कृता पीडान कदाचित् भविष्यति।